अथ एकनवत्युत्तरशततमं सूक्तम्। चतुर्रचस्यास्य सूक्तस्य आङ्गिरसः संवननऋषिः प्रथमर्चोऽग्निः द्वितीयादित्रिचस्य च संज्ञानं देवते प्रथमा द्वितीया चतुर्थीनामृचानामनुष्टुप् तृतीयायाश्चतृष्टुप्छन्दसि
संसमिद्युपसे वृषन्नग्ने विश्वान्यर्य आ इळस्पदे समिध्यसे स नो वसून्याभर सङ्गच्छध्वं संवदध्वं सम्भो मनांसि जानताम् देवाभागं यथा पूर्वे सञ्जानाना उपासते समानो मन्त्रः समिति समानि समानं मनः सह चित्तमेषाम् समानं मन्त्रमभिमन्त्रयेव समानेन वो हविषाजुहोमि समानेव आकोतिः समाना हृदयानि वः समानमस्तु भो मनो यथा वस्सु सह सति ॐ
इति एकनवत्युत्तरशततमं सूक्तम् इति दशमं मण्डलम्।